वर्णानामर्थसङ्घानाम् रसानाम् छन्दसामपि मङ्गलानाम् च कर्तारौ वन्दे वाणी विनायकौ। नमांसि समेभ्यः प्रियजनेभ्यः। अयमे अमरवाणी परिसेवन तत्पराः सखायः। अवसरेऽस्मिन् संस्कृत साप्ताहिक्याः काञ्चित् अभिनवाम् रमणीयाम् अङ्कमालाम् अलङ्कृत्य उपस्थितोऽहम् जतिनशर्मा। नूतनेऽस्मिन् समवाये सकलानपि भवतः सौहार्दम् अहम् स्वागतवाक्कुसुमानि निवेदयामि। प्रियवाक्यमेव हि समेषाम् मनोरमणीयमिति सुविदितप्रायम् भवताम् रसिकानाम्। अतः प्रियङ्करसुभाषितेन अस्मान् आनन्दयति पुनीतत्रिपाठी।
को हि भारः समर्थानाम् किम् दूरम् व्यवसायिनाम्, को विदेशः स विद्यानाम्, कः परप्रियवादिनाम्। अर्थात् समर्थ अथवा शक्तिशाली लोगों के लिए कोई भी कार्य कठिन नहीं होता, व्यापारियों के लिए भी कोई स्थान दूर नहीं, पढ़े लिखे विद्वान व्यक्तियों के लिए कोई भी स्थान विदेश नहीं, इसी प्रकार जो मधुभाषी हैं, उनके लिए कोई पराया नहीं।
अहो सुशोभना प्रस्तुति, धन्यवादाः महोदयाय। साम्प्रतम् प्रसंग प्रभागम् अनुगच्छामः। सुमधुर रसाप्लावितेन वचसा सर्वानानन्दयति नरेन्द्र दत्त सेमवालः।
प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभाम्, सद्रत्नवन्मकरकुण्डलहारभूषाम्, देव्यायुधोर्जितसुनीलसहस्रहस्ताम्, रक्तोत्पलाभचरणाम् भवतीम् परेशाम्। प्रातर्नमामि महिषा सुरचण्डमुण्ड शुम्भासुर प्रमुखदैत्यविनाशदक्षाम्, ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलाम्, चण्डीम् समस्तसुरमूर्तिमनेकरूपाम्।
अहो रसमयी प्रस्तुतिः। अयमे श्रोतारः आधुनिकेऽस्मिन् समाजे संस्कृत ज्ञानमिव विश्वमण्डले सङ्घटमानानाम् वार्तानाम् ज्ञानमपि नितान्तम् आवश्यकमिति जानन्त्येव भवन्तः। अतः तादृशीनाम् आवश्यकताम् पूरयितुम् नूतन वार्ताभिः सह समुपतिष्ठते दिव्यानन्द झाः।
लोकसभायाः तृतीय चरणात्मक निर्वाचनार्थम् अधिसूचना प्रसारिता, नामाङ्कन प्रक्रिया अपि समारब्धा। एतच्चरणार्थम् मतदानम् मे मासस्य सप्तमे दिनाङ्के भविष्यति। लोकसभायाः प्रथम चरणात्मक निर्वाचनार्थम् प्रचाराभियानम् पराम् काष्ठाम् भजते। राजनीतिक दलानाम् शीर्ष नेतारः मतदातृन् स्व स्व पक्षे आक्रष्टुम् जनसभादि माध्यमेन यथाशक्ति प्रयतन्ते। राष्ट्रियान्वेषणाभिकरणेन बेंगलुरोः रामेश्वरम् कैफे विस्फोटकाण्डस्य मुख्यम् षड्यन्त्रकारिणम् समेत्य द्वौ आरोपिणौ निगृहीताः। हरियाणा राज्ये महेन्द्रगढ जनपदे विद्यालयीय बसयान दुर्घटनायां षड् बालाः मृत्युम् उपगताः, द्वाविंशतिः च व्रणिताः जाताः। अन्ताराष्ट्रिय न्यायालयेन गाजायाम् आवश्यक खाद्य सामग्री जातम् उपलम्भयितुम् इजरायल देशः आदिष्टः। अपि च किर्गिस्ताने एशिया मल्ल नायक स्पर्धा मालिकायां भारतम् प्रथमे एव दिने एकं राजतम् द्वे कांस्य पदके च जितवत्।
नवीन विषयावगमनाय महोदयाय धन्यवादाः। इदानीं वयं ज्ञान विज्ञान निदर्शनमिति अन्वर्थ नामके प्रभागे प्रविशामः। इह प्रभागे कश्चित् महाजनः पण्डित प्रवरः मनीषी स्वानुभवात्मकैः समुपदेशैः अस्माकं पथ प्रदर्शनमाचरति इति प्रसिद्धमेव। अद्य वयं डॉक्टर लक्ष्मी नारायण पाण्डेय महोदयस्य सानिध्येन अस्मान् भवतश्च समुपकरिष्यामः। अस्मान् तैः सह मेलयति अस्माकं सहयोगी कृष्णप्रसादोपाध्यायः।
अद्य सन्ति अस्माकम् अतिथयः श्री लक्ष्मीनारायण पाण्डेय महाभागाः। इमे काशी विद्वत् परिषदा केन्द्रीय संस्कृत विश्वविद्यालयेन च संस्कृत भूषण विद्वत् भूषण पुरस्काराभ्याम् पुरस्कृताः। अनेकेषाम् पुस्तकानाम् काव्यरचनानाम् च रचयितारः सन्ति। संस्कृत हिन्दी बुन्देलखण्डी च भाषासु समानतया रचनारताः पाण्डेयवर्याः सेवानिवृत्तेः प्राक् मादृशानाम् नैकेषाम् संस्कृतच्छात्राणाम् शिक्षागुरवः आसन्, सम्प्रत्यपि च मार्गदर्शकाः सन्ति। आकाशवाणी श्रीमताम् पाण्डेयवर्याणाम् हार्दम् स्वागतम् करोति।
ओम् नमो नमः। सर्वेभ्यः मम नमस्कारः।
नमो नमः। वर्तमाने संस्कृतभाषायाः संस्कृतकवितायाः स्थिति च कीदृशी वर्तते ज्ञातुमिच्छामः वयम्।
वर्तमाने संस्कृतभाषायाः स्थितिः, संस्कृतसाहित्यस्य स्थितिः उभयतः अपि सन्तोषम् अनुभवामः। दृश्ये, श्रव्ये, गद्ये, पद्ये आधुनिकचिन्तनदृशा संस्कृते संस्कृतसाहित्ये निरन्तरम् साहित्यस्य निर्माणम् जायमानम् अस्ति। भाषायाः अपि प्रकर्षः जायमानः अस्ति, साहित्यस्यापि प्रकर्षः दृश्यते। यतोहि निरन्तरम् आभारतम् कवयः साहित्यकारः संस्कृते लिखन्तः सन्ति, प्रामाणिकम् लिखन्तः सन्ति, उदात्तम् लिखन्तः सन्ति। अतः वक्तुम् शक्यते यत् वर्तमाने संस्कृतभाषायाः संस्कृतकवितायाः स्थितिः उत्तमा, सन्तोषप्रदा, तोषदा च वर्तते इति सत्यम्।
अतीव शोभनम् उक्तम् भवता। संस्कृतकवितायाम् आधुनिककालबोधस्य अद्यता अस्ति नास्ति वा, कः विचारः भवतः?
इदम् सत्यम्। संस्कृते पारम्परिकतायाः धारा सघना, कथावस्तुसन्दर्भे, शैलीसन्दर्भे, प्रवृत्तिसन्दर्भे, रीतिसन्दर्भे, छन्दोविधानसन्दर्भे अद्यापि संस्कृतसाहित्ये परम्परायाः पालनम् श्रद्धया निश्चया च क्रियमाणम् वर्तते। इयम् पारम्परिकता तत्र साहित्ये दृश्यते। किन्तु न केवलम् पारम्परिकम्, अपि तु अद्य कालसापेक्षम्, देशसापेक्षम्, समाजसापेक्षम् साहित्यम् अपि कवयः साहित्यकाराः लिखन्तः सन्ति। समाजस्य ये प्रश्नाः भवन्ति, जीवनस्य ये प्रश्नाः भवन्ति, समस्याः सन्ति, तान् आश्रित्यापि कवीनाम् तत्र रुचिः वर्तते, आक्रोशः अपि वर्तते, कारुण्यम् अपि वर्तते। जागरूकतया संस्कृतस्य कविः समाजम् पश्यति, कालम् पश्यति, देशम् पश्यति, परिस्थितिम् पश्यति, मनुष्यम् पश्यति, तथा च अनुभूय तत् स्वकीये साहित्ये तत् सः वृणोति, विवृणोति तत् इति सत्यम्। समाजस्य प्रश्नानाम् विमर्शः संस्कृते जायमानः अस्ति इति वयम् वक्तुम् शक्नुमः।
ओम्। किम् संस्कृते अपि युवकवयः तथैव कवितारचने सिद्धाः यथा अन्यभाषासु युवानः सन्ति?
संस्कृतसाहित्य जगतः एकम् सुन्दरम् दृश्यम् इदमस्ति यत् अस्माकम् ये ज्येष्ठाः आचार्याः कवयः साहित्यकाराः ते तु संस्कृतसाहित्यम् ते लिखन्तः एव सन्ति, ते अस्माकम् प्रेरकाः एव। किन्तु यथा अन्यासु भाषासु अधुना अवलोक्यते युवानः तत्र तेषां साहित्यिकं किञ्चित् चिन्तनं बहु स्तुत्यं वर्तते, अनुकरणीयं वर्तते। तेषां लेखिनी सजीवा लेखिनी भाति, प्रज्वलिता लेखिनी भाति, तेषां युगबोधः अपि प्रशंसनीयः खलु। तथा संस्कृतेपि सा स्थितिः वर्तते। इदानीं संस्कृतलेखने युवानः बहवः सक्रियाः सन्ति, यूनां महती संख्या अधुना वर्तते, ये न केवलं लिखन्ति अपि तु बहु भव्यं लिखन्ति, दिव्यं लिखन्ति, सारस्वतं लिखन्ति।
महोदय, अत्युत्तमम् उक्तं भवता। अहं ज्ञातुमिच्छामि यत् हिन्दी संस्कृत भाषयोः साहित्यिक प्रवृत्तिदृष्ट्या किं साम्यं किञ्च वैषम्यम्, को विचारः भवतः, कृपया वदन्तु।
साहित्यस्य निर्माणं तु अधुनापि हिन्द्यामपि जायमानमस्ति, संस्कृते अपि जायमानमस्ति, प्रचुरतया जायमानमस्ति। हिन्दीभाषायाः अपि कवयः, लेखकाः, साहित्यकाराः बहवः सन्ति, तथैव संस्कृते अपि। अतः लेखनदृष्ट्या द्वयोः, हिन्दी संस्कृतयोः, तथा भेदः न प्रतिभाति, यतोहि उभयोः उभयत्रापि प्रचुरं लेखनं दृश्यते, उत्तमं लेखनं दृश्यते, कालसापेक्षं लेखनं दृश्यते, उत्तमाः कवयः सक्रियाः सन्ति, लेखकाः सक्रियाः सन्ति। किन्तु यदि सूक्ष्म दृष्ट्या विचारयामः तदा मम विषये एकः भेदः दृष्टिगोचरः भवति। संस्कृतस्य या साहित्यस्य या धारा, सा अधुनापि, यतोहि वयं जानीमः कवितां आश्रित्य, काव्यम् आश्रित्य, नाटकम् आश्रित्य, साहित्यम् आश्रित्य महान् विमर्शः संस्कृते वर्तते, अनुशासनानि वर्तन्ते, काव्यानुशासनम्, छन्दोनुशासनम्, साहित्यानुशासनम्, शब्दानुशासनम्। अनुशासनस्य या प्रक्रिया, या पद्धति, पुष्टा सिद्धा पद्धति, विशदा पद्धति संस्कृते वर्तते, अधुनापि तस्याः परिपालनं दृश्यते। छन्दांसि तथैव अनुवर्तन्ते, विषयाः अपि अनुवर्तन्ते, रीतयः अपि अनुवर्तन्ते, गुणाः अपि अनुवर्तन्ते। अतः एकः एषः पक्षः साहित्यशास्त्रीयः पक्षायाः अस्ति, सः पक्षः संस्कृतस्य उत्तमः पक्षः इति अहं भावयामि। तथा अतिरेकः तत्र नास्ति, मम विचारः, व्यक्तिगतविचारः अस्ति। अतः अहं वक्तुं शक्नोमि यत् संस्कृतस्य साहित्यम् अधुनापि काव्यानुशासनेन युक्तं, छन्दोनुशासनेन युक्तं वर्तते। यद्यपि संस्कृतेपि छन्दोमुक्तकवितायाः लेखनं बहोः कालतः जायमानमस्ति, उत्तमं लेखनं जायमानमस्ति, छन्दोमुक्तकवितायाः, पुनश्च हिन्दीभाषायां ये यानि प्रचलितानि छन्दांसि, तेषामपि प्रयोगः संस्कृते जायमानः अस्ति। किन्तु यावत् प्रमाणेन संस्कृते पारम्परिकतायाः, पारम्परिकसिद्धान्तानाम्, अनुशासनानां पालनं दृश्यते, तथानुपालनं हिन्दीभाषायाः साहित्यजगति इदानीं न दृश्यते।
महोदय, उच्यते यत् मधुरेण समापयेत् इति, अतः अहम् इच्छामि यत् अन्ते कापि एका संस्कृतस्य आधुनिकी भवदीया रचना, या हि समसामयिकी अपि स्यात्, श्रावयन्तु कृपया।
इदानीम् एकां गीतिं प्रस्तौमि, गायामि नहि अपि तु पठामि। तथा जीवनं ह्यभिनन्दामि, पीत्वा पीडामहं हसामि। तथा जीवनं ह्यभिनन्दामि, पीत्वा पीडामहं हसामि। स्कन्धे स्वस्य शवं सन्धृत्य, स्कन्धे स्वस्य शवं सन्धृत्य, इतस्ततो यामि चायामि।
अद्य साधुभीतं, सर्वेभ्यः पुनः धन्यवादाः।
अहो, विद्वद्वाणीम् अवधार्य आनन्दिताः स्मः। विदुषे स्वामूल्य समय प्रदानाय धन्यवादाः। अधुना वयं संस्कृत दिग्दर्शन प्रभागं सम्प्राप्ताः विद्यामहे। विश्वभाषा संस्कृतस्य सेवा सकलस्यापि विश्वस्य परमं कर्तव्यं विद्यते इति सकलमपि प्रपञ्चं संस्कृतसेवार्थं प्रोत्साहयितुं प्रवर्तयितुं च अस्माभिः संस्कृतानुरागिभिः समाचरितानि कृत्यानि दृष्टान्तरूपेण परेषामुपकारायात्र प्रस्तूयन्ते। तदिदं प्रकाशयति साधना शर्मा।
नवदिल्लीस्थ संगीत नाटक अकादम्या शक्ति महोत्सव आयोजित। रानी पद्मावती तारा योग तंत्र आदर्श संस्कृत महाविद्यालये चैत्र वर्ष प्रतिपदा एवं भारतीय नववर्षस्य आयोजनं कृतम्। उज्जैनस्थ महर्षि पाणिनि संस्कृत एवं वैदिक विश्वविद्यालयस्य भारतीय भाषा समितिश्च संयुक्त तत्वावधाने अप्रैल मासस्य अष्ट दिनांके श्री महाकालेश्वर वैदिक शोध प्रशिक्षण संस्थानेन एक दिवसीया सरल मानक संस्कृत राष्ट्रीय कार्यशाला आयोजिता। श्री शंकराचार्य अभिनव सच्चिदानंद तीर्थ संस्कृत महाविद्यालये प्रवेश प्रारब्ध। आंध्र प्रदेश प्रांतीयेन संस्कृत संस्कृति विकास संस्थानेन सनातन संस्कृतौ युगादि पर्वण वैशिष्ट्यम् विषयेऽस्मिन् व्याख्यानम् आयोजितम्।
मधुरमयस्य संस्कृत जगतः विज्ञानम् अवश्यमेव श्रेयः विधत्ते इत्यस्माकं विश्वासः। धन्यवादाः महोदयायै। अतः परं बालानामपि संस्कृत भाषायां रुचेः ज्ञानस्य च संवर्धनाय बालमनोहारिभिः सूक्तिभिः उपस्थिता विद्यते मुदिता वेतालः।
नमो नमः बालकेभ्यः। अद्य अहम् एकां लघुकथां श्रावयामि। कथायाः शीर्षको वर्तते साधूनां जीवनम्। गङ्गातीरे एकः साधुः वसति स्म। सः बहु उपकारं करोति स्म। यः अपकारं करोति तस्याः उपरि अपि सः उपकारं करोति स्म। एकस्मिन् दिने सः गङ्गानद्यां स्नानं कर्तुं नदीं गतवान्। नदी प्रवाहे एकः वृश्चिकः आगतः। साधुः वृश्चिकं दृष्टवान्, तं हस्तेन गृहीतवान्, तीरे स्थापयितुं प्रयत्नं च कृतवान्, किन्तु सः साधुः हस्तम् अदशत्। साधुः तं त्यक्तवान्, वृश्चिकः जले अपतत्। पुनः साधुः वृश्चिकं गृहीत्वा तीरे स्थापयितुं प्रयत्नं कृतवान्, पुनः वृश्चिकः हस्तम् अदशत्। एवम् अनेकवारं साधुः वृश्चिकं गृहीतवान्, वृश्चिकः अपि साधुम् अदशत्। नदी तीरे एकः पुरुषः आसीत्। सः एतत् सर्वं दृष्टवान् अथ उक्तवान् यत् साधु महाराज, अयं वृश्चिकः दुष्टः, सः पुनः पुनः दशति, भवान् किमर्थं तं हस्ते वृथा स्थापयति, वृश्चिकं त्यजतु। साधुः उक्तवान्, वृश्चिकः क्षुद्रः जन्तुः भवति, दंशनं तस्य स्वभावः, सः स्वस्य स्वभावं न त्यजति, अहं तु मनुष्यः, अहं मम परोपकार स्वभावं कथं त्यजामि, यः अपकारिणाम् अपि उपकारं करोति सः एव साधुः भवति।
मधुरमाचरणम् अवश्यमेव बालाः सन्तुष्टाः भवेयुः इति विश्वसिमि। इदानीं संस्कृत जनन्याः सेवार्थं भाषाज्ञानमेव प्राथमिकं सोपानमिति विचिन्त्य कैश्चित् भाषानुवादैः अत्र स्वम् उपस्थापयति सुरेश चन्द्र शर्मा।
प्रथमं वाक्यम् अस्ति, नवरात्र पर्व हिन्दुधर्मिणां जनानां महत्वपूर्णं पर्व मन्यते। हिंदी भाषायां नवरात्र पर्व हिंदुओं के लिए बड़ा ही महत्वपूर्ण त्योहार माना जाता है। राजस्थानी भाषायां नोरता को पर्व हिंदुओं को बड़ो ही महत्वपूर्ण त्योहार मानो जावो छ। द्वितीयम वाक्यम अस्ति, नवरात्र पर्वणि नव दिन पर्यंतम जगत जनन्याः मातुः अर्चना विधीयते। हिंदी भाषायां नवरात्र पर्व के अंतर्गत 9 दिन तक जगदम्बा माता की पूजा अर्चना की जाती है। राजस्थानी भाषायां नोरता में 9 दिन ताणी माता की पूजा की जावच है। तृतीयम वाक्यम अस्ति, नवरात्र पर्वणि अंतिमे नवमे दिने चैत्र मासे रामनवमी पर्व सोल्लासं सहश्रद्धं चाचर्यते। हिंदी भाषायां नवरात्र पर्व के अंतिम नवे दिन चैत्र मास में रामनवमी का पर्व बड़ी ही उल्लास के साथ में मनाया जाता है। राजस्थानी भाषायां नोरता के अंतिम नवे दिन चैत्र मास के मायने रामनवमी को पर्व बड़े ही उत्साह से मनावा छे। धन्यवाद।
प्रियतमाः श्रोतृवृन्दाः, अद्यतनोऽयं कार्यक्रमः उपसंहारस्य सोपाने सम्प्राप्तः विद्यते। अतः कार्यक्रमस्यास्य समापनार्थम् अहं भवतां रसिकानाम् अनुज्ञां प्रार्थयामि। सत्रस्यास्य विषये कृपया भवतां प्रतिस्पन्दान् संस्कृतसाप्ताहिकी@gmail.com इति ईमेल माध्यमेन प्रेषयन्तु इति प्रार्थये। आगामि सप्ताहे अभिनवम् रञ्जकम् अंकमादाय यथासमयम् पुनर्मिलामः। धन्यवादाः। जयतु संस्कृतम्, जयतु भारतम्।